శుక్లాంబరధరం విష్ణుం శశివర్ణం చతుర్భుజం ప్రసన్నవదనం ధ్యాయేత్ సర్వవిఘ్నోపశాంతయే. వ్యాసం వశిష్ఠ నక్తారం శక్తే పౌత్రమకల్మషం పరాశరాత్మజం వందే శుకతాతం తపోనిధిం. వ్యాసాయ విష్ణురూపాయ వ్యాసరూపాయ విష్ణవే నమో వై బ్రహ్మనిధయే వాసిష్ఠాయ నమో నమః. అవికారాయ శుద్ధాయ నిత్యాయ పరమాత్మనే సదైకరూపరూపాయ విష్ణవే సర్వజిష్ణవే. ఓం నమో విష్ణవే ప్రభ విష్ణవే శ్రీవైశంపాయన ఉవాచ. శ్రుత్వా ధర్మానశేషేణ పావనాని చ సర్వశః యుధిష్ఠిర శాంతనవం పునరేవాభ్యభాషత. యుధిష్ఠిర ఉవాచ కిమేకం దైవతం లోకే కిం వాప్యేకం పరాయణం స్తువంతకం కమర్చంత ప్రాప్నయుర్మానవాశుభం. కో ధర్మ సర్వధర్మాణాం భవద పరమో మతః కిం జపన్ముచ్యతే జందుర్జన్మ సంసార బంధనాత్. శ్రీభీష్మౌ వాచ జగత్ప్రభుం దేవదేవం అనంతం పురుషోత్తమం స్తువన్నామ సహస్రేణ పురుషస్య తతోత్తితః తమేవ చార్చయన్ నిత్యం భక్త్యా పురుషమవ్యయం. ధ్యాయన్ స్తువన్ నమస్యం చ యజమానస్తమేవ చ అనాదినిధనం విష్ణుం సర్వలోకమహేశ్వరం లోకాధ్యక్షం స్తువన్ నిత్యం సర్వదుఃఖాదిగో భవేత్. బ్రహ్మణ్యం సర్వధర్మణ్యం లోకానాం కీర్తివర్ధనం లోకనాథం మహద్భూతం సర్వభూతభవోద్భవం. ఏష మే సర్వధర్మాణాం ధర్మోధికతమో మదః యద్భక్త్యా పుండరీకాక్షం స్తవైరర్చేన్నరః సదా. పరమం యో మహత్తేజః పరమం యో మహత్తపః పరమం యో మహద్బ్రహ్మ పరమం యఃపరాయణం. పవిత్రాణాం పవిత్రం యో మంగళానాం చ మంగళం దైవతం దేవతానాం చ భూతానాం యో వ్యయపితః. యదః సర్వాణి భూతాని భవంత్యాది యుగాగమే యస్మిన్ చ ప్రళయం యాంతి పునరేవ యుగక్షయే. తస్య లోక ప్రధానస్య జగన్నాథస్య భూపతే విష్ణోర్నామ సహస్రం మే శృణు పాప భయాపహం. యాని నామాని గౌణాని విఖ్యాతాని మహాత్మనః ఋషిభిః పరిగీతాని తాని వక్ష్యామి భూతయే. ఋషిర్నామ్నాం సహస్రస్య వేదవ్యాసో మహాముని ఛందోనుష్టుప్ తథా దేవో భగవాన్ దేవకీ సుతః. అమృతాంశూద్భవో బీజం శక్తిర్దేవకీ నందనః. త్రిసామా హృదయం తస్య శాంత్యర్థే వినియుజ్యతే. విష్ణుం జిష్ణుం మహావిష్ణుం ప్రభ విష్ణుం మహేశ్వరం అనేక రూప దైత్యాంతం నమామి పురుషోత్తమం. అస్య శ్రీ విష్ణోర్దివ్య సహస్రనామ స్తోత్ర మహామంత్రస్య శ్రీ వేదవ్యాసో భగవాన్ ఋషిః అనుష్టుప్ ఛందః. శ్రీ మహావిష్ణు పరమాత్మా శ్రీమన్నారాయణో దేవత అమృతాంశూద్భవో భానురితి బీజం దేవకీ నందన శ్రష్టేతి శక్తిః. ఉద్భవః క్షోభణో దేవగితి పరమో మంత్రః. శంఖప్రన్నందకీ చక్రీతి కీలకం శార్ంకధన్వా గదాధర ఇత్యర్థం. రథాంగపాణి అక్షోభ్యగితి నేత్రం త్రిసామా సామగ సామేతి కవచం. ఆనందం పరబ్రహ్మేతి యోనిః ఋదుః సుదర్శన కాల ఇది దిగ్బంధః. శ్రీ విశ్వరూప ఇది ధ్యానం. శ్రీ మహావిష్ణు ప్రీత్యర్థే సహస్రనామ జపే వినియోగః. ధ్యానం క్షీరోదన్వత్ ప్రదేశే శుచిమణి విలచత్ సైకతే మౌక్తికానాం మాలా క్లుప్తాసనస్త స్ఫటికమణి నిభైర్ముక్తికైర్మండితాంగః. శుభ్రైరభ్రైరదభ్రైరుపరి విరచితైర్ముక్త పీయూషవర్షైః ఆనందీన పునీయాదరి నళిన గదా శంఖపాణిర్ముకుంతః. భూపాదౌ యస్య నాభిర్వియదసుర నిలశ్చంద సూర్యో చ నేత్రే కర్ణావాషా శిరౌ ద్రౌ ముఖమపి దహనో యస్య వాస్తేయమభిః. అంతస్థం యస్య విశ్వం సురనర కగగో భోగి గంధర్వ దైత్యైః చిత్రం రం రం యతేతం త్రిభువన వభుషం విష్ణుమీశం నమామి. ಓಂ ನಮೋ ಭಗವತೆ ವಾಸುದೇವಾಯ. ಶಾಂತಾಕಾರಂ ಭುಜಗಶಯನಂ ಪದ್ಮನಾಭಂ ಸುರೇಶಂ ವಿಶ್ವಾಧಾರಂ ಗಗನಚತುರ್ಷಂ ಮೇಘವರ್ಣಂ ಶುಭಾಂಗಂ ಲಕ್ಷ್ಮೀಕಾಂತಂ ಕಮಲನಯನಂ ಯೋಗಿಕೃಧ್ಯಾನಗಮ್ಯಂ ವಂದೇ ವಿಷ್ಣುಂ ಭವಭಯಹರಂ ಸರ್ವಲೋಕೈಕನಾಥಂ ಮೇಕಶ್ಯಾಮಂ ಪೀತಕೌಶೇಯವಾಸಂ ಶ್ರೀವತ್ಸಾಂಗಂ ಕೌಸ್ತುಭೋತ್ಪಾಸಿತಾಂಗಂ ಪುಣ್ಯೋಪೇದಂ ಪುಂಡರೀಕಾಯತಾಕ್ಷಂ ವಿಷ್ಣುಂ ವಂದೇ ಸರ್ವಲೋಕೈಕನಾಥಂ ನಮಃ ಸಮಸ್ತಭೂತಾನಾಂ ಆದಿಭೂತಾಯ ಭೂಭೃತೇ ಅನೇಕರೂಪರೂಪಾಯ ವಿಷ್ಣವೇ ಪ್ರಭವಿಷ್ಣವೇ ಸಸಂಗಚಕ್ರಂ ಸಕರೀಟಕುಂಡಲಂ ಸಪೀತವಸ್ತ್ರಂ ಸರಸೀರುಹೇಕ್ಷಣಂ ಸಹಾರವಕ್ಷಸ್ಥಲಶೋಭಿಕೌಸ್ತುಭಂ ನಮಾಮಿ ವಿಷ್ಣುಂ ಶಿರಸಾ ಚದುರ್ಭುಜಂ ಛಾಯಾಯಾಂ ಪಾರಿಜಾತಸ್ಯ ಹೇಮ ಸಿಂಹಾಸನೋಪರಿ ಆಸೀನಮಂ ಬುಧಶ್ಯಾಮ ಮಾಯಿತಾಕ್ಷಮಲಂಕೃತಂ ಚಂದ್ರಾನಮಂ ಚದುರ್ಬಾಹುಂ ಶ್ರೀವತ್ಸಾಂಕಿತವಕ್ಷಸಂ ರುಕ್ಮಿಣೀ ಸತ್ಯಭಾಮಾಭ್ಯಾಂ ಸಗಿದಂ ಕೃಷ್ಣಮಾಶ್ರಯೇ. ವಿಶ್ವಂ ವಿಷ್ಣುರ್ವಷಟ್ಕಾರೋ ಭೂತಭವ್ಯ ಭವತ್ಪ್ರಭುಃ ಭೂತಕೃದ್ಭೂತಭೃದ್ಭಾವೋ ಭೂತಾತ್ಮಾ ಭೂತಭಾವನಃ ಭೂತಾತ್ಮಾ ಪರಮಾತ್ಮಾ ಚ ಮುಕ್ತಾನಾಂ ಪರಮಾಗತಿಃ ಅವ್ಯಯಃಪುರುಷಃ ಸಾಕ್ಷೀ ಕ್ಷೇತ್ರಜ್ಞೋಕ್ಷರ ಏವ ಚ ಯೋಗೋ ಯೋಗವಿದಾಂ ನೇದ ಪ್ರಧಾನ ಪುರುಷೇಶ್ವರಃ ನಾರಸಿಂಹವಪು ಶ್ರೀಮಾನ್ ಕೇಶವಪುರುಷೋತ್ತಮಃ ಸರ್ವಶರ್ವಶಿವಸ್ಥಾನುರ್ಭೂತಾದಿರ್ನಿಧಿರವ್ಯಯಃ ಸಂಭವೋ ಭಾವನೋ ಭರ್ತಾ ಪ್ರಭವ ಪ್ರಭುರೀಶ್ವರಃ ಸ್ವಯಂಭೂಶಂಭುರಾದಿತ್ಯ ಪುಷ್ಕರಾಕ್ಷೋ ಮಹಾಸ್ವನಃ ಅನಾದಿನಿಧನೋ ಧಾತಾ ವಿಧಾತಾ ಧಾದುರುತ್ತಮಃ ಅಪ್ರಮೇಯೋ ಹೃಷಿಕೇಶ ಪದ್ಮನಾಭೋಮರ ಪ್ರಭುಃ ವಿಶ್ವಕರ್ಮಾ ಮನುಸ್ತ್ವಷ್ಟಸ್ಥವಿಷ್ಟಸ್ಥವಿರೋ ಧ್ರುವಃ ಅಗ್ರಾಯಃ ಶಾಶ್ವತ ಕೃಷ್ಣೋ ಲೋಹಿತಾಕ್ಷ ಪ್ರದರ್ತನಃ ಪ್ರಭೂತಸ್ತ್ರಿಕ ಗುಪ್ತಾಮ ಪವಿತ್ರಂ ಮಂಗಲಂ ಪರಂ ಈಶಾನ ಪ್ರಾಣದ ಪ್ರಾಣೋ ಜ್ಯೇಷ್ಠ ಶ್ರೇಷ್ಠ ಪ್ರಜಾಪತಿಃ ಹಿರಣ್ಯಗರ್ಭೋ ಭೂಗರ್ಭೋ ಮಾಧವೋ ಮಧುಸೂದನಃ ಈಶ್ವರೋ ವಿಕ್ರಮೀ ಧನ್ವೀ ಮೇಧಾವೀ ವಿಕ್ರಮಕ್ರಮಃ ಅನುತ್ತಮೋ ದುರಾಧರ್ಷ ಕೃತಜ್ಞ ಕೃತಿರಾತ್ಮವಾನ್ ಸುರೇಶ ಶರಣಂ ಶರ್ಮ ವಿಶ್ವರೇತಾ ಪ್ರಜಾಭವಃ ಅಹತ್ ಸಂವತ್ಸರೋ ವ್ಯಾಲ ಪ್ರತ್ಯಯಃ ಸರ್ವದರ್ಶನಃ ಅಜಃ ಸರ್ವೇಶ್ವರಃ ಸಿದ್ಧ ಸಿದ್ಧಿಃ ಸರ್ವಾದಿರಚ್ಯುತಃ ಕೃಶಾ ಕಪಿರಮೇಯಾತ್ಮಾ ಸರ್ವಯೋಗ ವಿನಿಶ್ರುತಃ ವಸುರ್ವಸುಮನಃ ಸತ್ಯಃ ಸಮಾತ್ಮಾ ಸಂಮಿದಃ ಸಮಃ ಅಮೋಘ ಪುಂಡರೀಕಾಕ್ಷೋ ವೃಷಕರ್ಮಾ ವೃಷಾಕೃತಿಃ ರುದ್ರೋ ಬಹುಶಿರಾ ಬಭ್ರುರ್ವಿಶ್ವಯೋನಿಶ್ರುಚಿಶ್ರವಾಃ ಅಮೃತಶಾಶ್ವತಸ್ಥಾನುರ್ವರಾರೋಹೋ ಮಹಾತಪಾಃ ಸರ್ವಗಃ ಸರ್ವವಿದ್ಭಾನು ವಿಶ್ವಕ್ಸೇನೋ ಜನಾರ್ದನಃ ವೇದೋ ವೇದವಿದವ್ಯಂಗೋ ವೇದಾಂಗೋ ವೇದವಿಕ್ಕವಿಃ ಲೋಕಾಧ್ಯಕ್ಷ ಸುರಾಧ್ಯಕ್ಷೋ ಧರ್ಮಾಧ್ಯಕ್ಷ ಕೃದಾಕೃತಃ ಚತುರಾತ್ಮಾ ಚತುರ್ವ್ಯೂಹಶ್ಚತುರ್ದಂಶ್ಚತುರ್ಭುಜಃ ಭ್ರಾಜಿಷ್ಣುರ್ಭೋಜನಂ ಭೋಕ್ತಾ ಸಹಿಷ್ಣುರ್ಜಗದಾದಿಜಃ ಅನಘೋ ವಿಜಯೋ ಜೇತಾ ವಿಶ್ವಯೋನಿ ಪುನರ್ವಸುಃ ಉಪೇಂದ್ರೋ ವಾಮನ ಪ್ರಾಂಶುರ್ಅಮೋಘಃ ಸುಚಿರೂರ್ಜಿತಃ ಅತೀಂದ್ರಃ ಸಂಗ್ರಹಃ ಸರ್ಗೋ ಧೃತಾತ್ಮಾ ನಿಯಮೋ ಯಮಃ ವೇದ್ಯೋ ವೈದ್ಯಃ ಸದಾ ಯೋಗೀ ವೀರಃ ಮಾಧವೋ ಮಧುಃ ಅತೀಂದ್ರಿಯೋ ಮಹಾಮಾಯೋ ಮಹೋತ್ಸಾಹೋ ಮಹಾಬಲಃ ಮಹಾಬುದ್ಧಿರ್ಮಹಾವೀರ್ಯೋ ಮಹಾಶಕ್ತಿರ್ಮಹಾದ್ಯುತಿಃ ಅನಿರ್ದೇಶ್ಯವಪುರ್ ಶ್ರೀಮಾನ್ ಅಮೇಯಾತ್ಮಾ ಮಹಾದೃದೃಕ್ ಮಹೇಶ್ವಾಸೋ ಮಹೀ ಭರ್ತಾ ಶ್ರೀನಿವಾಸಃ ಸದಾಂ ಗತಿಃ ಅನಿರುದ್ಧ ಸುಧಾನಂದೋ ಗೋವಿಂದೋ ಗೋವಿದಾಂಪತಿಃ ಮರೀಚಿದ್ದಮನೋಹಂಸ ಸುಪರ್ಣೋ ಭುಜಗೋತ್ತಮಃ ಹಿರಣ್ಯನಾಭಃ ಸುತಪಾ ಪದ್ಮನಾಭ ಪ್ರಜಾಪತಿಃ ಅಮೃತ್ಯುಃ ಸರ್ವದೃಕ್ಸಿಂಹಃ ಸಂಧಾತಾ ಸಂಧಿಮಾನ್ ಸ್ಥಿರಃ ಅಜೋ ದುರ್ಮರ್ಶನ ಶಾಸ್ತ ವಿಶ್ರುತಾತ್ಮಾ ಸುರಾರಿಹ ಗುರುರ್ಗುರುತಮೋ ಧಾಮಃ ಸತ್ಯ ಸತ್ಯ ಪರಾಕ್ರಮಃ ನಿಮಿಷೋ ನಿಮಿಷಸ್ರಗ್ವೀ ವಾಚಸ್ಪತಿರುದಾರಧೀಃ ಅಗ್ರಣೀರ್ಗ್ರಾಮಣೀ ಶ್ರೀಮಾನ್ ನ್ಯಾಯೋ ನೇತಾ ಸಮೀರಣಃ ಸಹಸ್ರಮೂರ್ಧಾ ವಿಶ್ವಾತ್ಮಾ ಸಹಸ್ರಾಕ್ಷಃ ಸಹಸ್ರಪಾತ್ आवर्तनो निवृत्तात्मा संवृत संप्रमर्दन अह संवर्तको वह्नी रणिलो धरणीधर सुप्रसाद प्रसन्नात्मा विश्वधृग् विश्वभुक् विभुः सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः असंकेयो प्रमेयात्मा विशिष्टशिष्टकृच्छुचिः सिद्धार्थ सिद्ध संकल्प सिद्धि तस्सिद्धि साधन वृषाही वृषभो विष्णुर्वृषपर्वा वृषोधर वर्धनो वर्धमानश्च विविक्त श्रुति सागर सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसु नैकरूपो बृहत्रूप श्रीविष्ट प्रकाशन ओजस्तेजोद्युदिधर प्रकाशात्मा प्रतापन वृद्धस्पष्टाक्षरो मन्त्रचन्द्रांशुर्भास्कर द्युतिः अमृतांशुद्भवो भानुशशबिन्दुः सुरेश्वरः औषधं जगदस्येदुः सत्यधर्मपराक्रमः भूतभव्यभवन्नाथ पवनपावनो नलः कामः कामकृत्कान्तकामः कामप्रदप्रभुः युगादिहृद्युगावर्तो नैकमायो महाशनः अदृश्यो व्यक्तरूपश्च सहस्रजितनन्तजित् इष्टो विशिष्टशिष्टेष्टशिखण्डी नहुशो वृषः क्रोधः क्रोधकृत्कर्ता विश्वबाहुर्महीधरः अच्युतप्रदिदप्राणप्राणदो वासवानुजः अपान्निधिरधिष्ठानम् अप्रमत्तप्रतिष्ठितः स्कन्दस्कन्दधरो धुर्यो वरदो वायुवाहनः वासुदेवो बृहद्भानुरादिदेव पुरन्दरः अशोकस्तारणस्तारः शूरशौरिर्जनेश्वरः अनुकूलः सदावर्त पद्मी पद्मनिभेक्षणः पद्मनाभोरविन्दाक्ष पद्मगर्भशरीरभृद् महर्दिर्ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः अतुलशरभो भीमः समयज्ञो हविर्हरिः सर्वलक्षणलक्षण्यो लक्ष्मीवांसमितिञ्जयः दिक्षरो रोहितो मार्गो हेतुर्दामोदरः सह महीधरो महाभागो वेगवानमिताशनः उद्भवक्षोभणो देवः श्रीगर्भः परमेश्वरः करणं कारणं कर्ता विकर्ता गहनो गुहः व्यवसायो व्यवस्थानः संस्थानस्थानदो ध्रुवः परर्दिपरमस्पष्टतुष्टपुष्टसुभेक्षणः रामो विरामो विरदो मार्गो नेयो नयो नयः वीरशक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः वैकुन्तपुरुषप्राणप्राणदप्रणवपृतुः हिरण्यगर्भः शत्रुघ्नो व्याप्तो व्यायुरदोक्षजः ऋदुः सुदर्शनः कालः परमेष्टिः परिग्रहः उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः विस्तारस्तावरस्तानुप्रमाणं बीजमव्ययम् अर्थोऽनर्थो महाकोशो महाभोगो महाधनः अनिर्विन्नस्तविष्टो भूर्धर्मयूपो महामकः नक्षत्रणेमिर्नक्षत्री शमक्षामः समीहनः यज्ञयुज्यो महिज्यश्च क्रतः सत्रं सदा गतिः सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् सुव्रतः सुमुखः सूक्ष्म सुगो सशुगधः सुहृद् मनोहरो जिदक्रोधो वीरबाहुर्विदारणः स्वापनस्ववशो व्यापी नैकात्मा नैककर्मकृद् वत्सरो वत्सलो वत्सी रत्नगर्भोदनीश्वरः धर्मगुप्धर्मकृद्धर्मी सदसक्षरमक्षरम् अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः गभस्तिनेमिः सत्त्वस्थ सिंहो भूतमहेश्वरः आदिदेवो महादेवो देवेशो देवभृद्गुरुः उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः सोमपो मृतपः सोमः पुरुजित्पुरुसत्तमः विनयो जयः सत्यसन्धो धाशार्हः सात्वतां पतिः जीवो विनयिता साक्षी मुकुन्दोमितविक्रमः अम्भो निधिरनन्तात्मा महोदधिशयोऽन्तकः अजो महार्ह स्वाग्भाव्यो जिता मित्रप्रमोदनः आनन्दोऽनन्दनोऽनन्दः सत्यधर्मात्रिविक्रमः महर्षिः कपिलाचार्य कृतज्ञो मेदिनीपतिः त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गकृतान्तकृत् महावराहो गोविन्दः सुषेणः कनकाङ्गदी उव्योगभीरो गहनो गुप्तश्चक्रगदाधरः वेदास्वाङ्गो जिदकृष्णो दृढः सङ्कर्षणोच्युतः वरुणो वारुणो वृक्षपुष्कराक्षो महामनाः भगवान् भगहानन्दी वनमाली हलायुधः आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः सुदन्वा कन्दपरशुर्दारुणो द्रविणप्रदः दिवस्पृक्सर्वदिग्व्यासो वाचस्पतिरयो निजः त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् सन्न्यासकृच्चमशान्तो निष्ठा शान्तिपरायणम् शुभाङ्गः शान्तिदश्रष्टा कुमुदः कुवलेशयः गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः अनिवर्ती निवृत्तात्मा संक्षेक्ताक्षेमकृच्छिवः श्रीवत्सवक्षा श्रीवास श्रीपतिः श्रीमताम्बरः श्रीदश्रीशश्रीनिवास श्रीनिधिश्रीविभावनः श्रीधरक्ष्रीकरक्ष्रेय श्रीमान् लोकत्रयाशयः स्वक्षस्वङ्गशतानन्दो नन्दिर्ज्योतिर्गणेश्वरः विजितात्मा विधेयात्मा शक्तिर्तिश्चिन्न संशयः युधीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः भूषयो भूषणो भूतिर्विशोकशोकनाशनः अर्चिष्मान् अर्चितः कुम्भो विशुद्धात्मा विशोधनः अनिरुद्धो प्रदितरः प्रद्युम्नो मितविक्रमः कालनेमिनिहावीरः शौरिः शूरजनेश्वरः त्रिलोकात्मा त्रिलोकेश केशवः केशिहाहरिः कामदेवः कामपालः कामी कान्तकृदागमः अनिर्देश्यवपुर्विष्णुर्वीरो नन्दो धनञ्जयः ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः महाक्रमो महाकर्मा महातेजा महोरगः महाक्रतुर्महायज्वा महायज्ञो महाहविः तव्यस्तव प्रियस्तोत्रं स्तुतितोत्तारणप्रियः पूर्णपूर्ययिता पुण्यपुण्यकीर्तिरनामयः मनोजवस्तीर्थकरो वसुरेता वसुप्रदः वसुप्रदो वासुदेवो वसुर्वसुमनाहविः सद्गति सत्कृतिः सत्ता सद्भूतिः सत्परायणः शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः भूतावासो वासुदेवः सर्वासुनिलयो नलः दर्पः दर्पदो दृप्तो दुर्धरोता पराजितः विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्तशतमूर्तिर्शताननः एकोनैकसवक्कः किं यत्तत्पदमनुत्तमम् लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः एकोनैकसवक्कः किं यत्तत्पदमनुत्तमम् लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी वीरः विषमः शून्यो घृताशीरचलश्चलः अमान्यी मानदो मान्यो लोकस्वामी त्रिलोकधृक् सुमेधामेधजोदन्यः सत्यमेधाधराधरः तेजो वृषोद्युदिधरः सर्वशस्त्रभृताम्बरः प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् समावर्तो निवृत्तात्मा दुर्जयो दुरधिक्रमः दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा शुभाङ्गो लोकसारङ्गः सुदन्तुस्तन्तुवर्धनः इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः उद्भवः सुन्दरः सुन्दो रत्ननाभसुलोचनः अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जये सुवर्णबिन्दुरक्षोभ्य सर्ववागीश्वरेश्वरः महाह्रदो महागर्तो महाभूतो महानिधिः कुमुदकुन्दरः कुन्दः पर्जन्यपावनो निलः अमृतांशोऽमृतवपुत् सर्वज्ञः सर्वतोमुखः सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः नैग्रोधो दुम्बरोश्वत्तशानूरान्ध्रनिषूदनः सहस्राक्षि सप्तजिह्व सप्तैधा सप्तवाहनः अमूर्तिरनगोचिन्त्यो भयकृद्भयनाशनः अनुर्बृहत्कृशस्तूलो गुणभृन्निर्गुणो महान् अधृतस्वधृतस्वास्य प्राग्वंशो वंशवर्धनः भारभृत्कथितो योगी योगीश सर्वकामदः आश्रमश्रमणक्षामः सुपर्णो वायुवाहनः धनुर्धरो धनुर्वेदो दण्डो दमैदादमः अपराजितः सर्वसहो नियन्ता नियमो यमः सत्ववान् सात्विकः सत्यः सत्यधर्मपरायणः अभिप्रायप्रियार्होर्हप्रियकृत्प्रीतिवर्धनः विहाय स गतिर्ज्योतिः सुरुषिर्हुत भुग्विभुः रविर्विरोचनः सूर्यः सविता रविलोचनः अनन्तो हुद भुग्भोक्ता सुखदो नैकजो ग्रजः अनिर्विन्नः सदा मर्षी लोकाधिष्ठानमद्भुतः सनात्सनातनतमः कपिलः कपिरव्ययः स्वस्तिद स्वस्ति कृत्स्वस्ति स्वस्ति भुक्स्वस्ति दक्षिणः अरौद्रकुण्डली चक्री विक्रम्यूर्जितशासनः शब्दादिकः शब्दसः शिशिरः शर्वरीकरः अक्रूरप्यशलो दक्षो दक्षिणक्षमिनां वरः विद्वत्तमो वीथभयः पुण्यो श्रवणकीर्तनः उत्तारणो दुष्कृतिः पुण्यो दुष्स्वप्ननाशनः वीरः रक्षणः सन्तो जीवनपर्यवस्थितः अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः चतुरश्रोगभीरात्मा विदिशो व्याधिशो दिशः अनादिर्भूर्भुवो लक्ष्मी सुवीरो रुचिराङ्गदः जननो जनजन्मादिभीमो भीमपराक्रमः आधारनिलयोधाता पुष्पहासप्रजागरः ऊर्ध्वगः सत्पथाचारप्राणदप्रणवप्पनः प्रमाणं प्राणनिलय प्राणभृत्प्राणजीवनः तत्त्वं तत्त्वविदेकात्मा जन्म मृत्युजरादिगः भूर्भुवस्वस्तरुस्तारः सविता प्रपितामहः यज्ञो यज्ञपतिर्यज्वा यज्ञान्गो यज्ञवाहनः यज्ञभृद्यज्ञकृत्यज्ञी यज्ञभुक्यज्ञसाधनः यज्ञान्तकृत्यज्ञगुह्यमन्नमन्नादयेव च आत्मयोनिस्वयं जातो वैखानः सामगायनः देवकीनन्दनश्रष्टा क्षितीशपापनाशनः शङ्खपृन्नन्दकी चक्री शार्ङ्कधन्वागदाधरः रदाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः सर्वप्रहरणायुध ॐ नमयिति वनमाली गदीशाङ्गी शङ्की चक्री च नन्दकी श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु वनमाली गदीशाङ्गी शङ्की चक्री च नन्दकी श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु वनमाली गदीशाङ्गी शङ्की चक्री च नन्दकी श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु इतीदं कीर्तनीयस्य केशवस्य महात्मनः नाम्नां सहस्रं दिव्यानाम् अशेषेण प्रकीर्तितम् यदिदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् नाशुभं प्राप्नुयात् किञ्चित् सोमुत्रेह च मानवः धर्मार्थीत् प्राप्नुया धर्मम् अर्थार्थीर्चार्थमाप्नुयात् कामानवाप्नुयात् कामी प्रजार्थीर्चाप्नुयात् प्रजा भक्तिमान् यस्य दोथाय शुचिस्तद्गतमानसः सहस्रं वासुदेवस्य नाम्नां येतत् प्रकीर्तयेत् यश प्राप्नोति विपुलं न्यादि प्राधान्यमेव च अचलां श्रियमाप्नोति श्रेय प्राप्नोत्यनुत्तमम् न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति भवत्य रोगो द्युतिमान् बलरूपगुणान्वितः रोगार्तो मुच्यते रोगबद्धो मुच्येदबन्धनात् भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः दुर्गान्यतितरत्यासु पुरुषः पुरुषोत्तमम् स्तुवन्नाम सहस्रेण नित्यं भक्तिसमन्वितः वासुदेवाश्रयो मर्त्यो वासुदेव परायणः सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् न वासुदेव भक्तानाम् अशुभं विद्यते क्वचित् जन्म मृत्यु जरा व्याधि भयं नैवोपजायते। इमं स्तवमधीयान श्रद्धा भक्ति समन्वितः युच्चेतात्मसुख क्षांति श्रीदृद स्मृति कीर्तिभिः। न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः। भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे। द्योषचन्द्रार्क नक्षत्राकं दिशो भूर्महोदधिः। वासुदेवास्य वीर्येण विदृदानि महात्मनः। ससुरासुर गंधर्वं सयक्षोरग राक्षसं। जगत्वशे वर्ततेदं कृष्णस्य सचराचरम्। इन्द्रियाणि मनो बुद्धिस्तवं तेजो बलं धृतिः। वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च। सर्वागमानामाचार प्रथमं परिकल्पते। आचार प्रभवो धर्मो धर्मस्य प्रभुरच्युतः। ऋषयपितरो देवा महाभूतानि धातवः। जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम्। योगो ज्ञानं तथा साङ्ख्यं विद्या शिल्पादिकर्म च। वेदाः शास्त्राणि विज्ञानं एतत् सर्वं जनार्दनात्। एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः। त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः। इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम्। पदेद्य इच्छेत् पुरुषश्रेय प्राप्तुं सुखानि च। विश्वेश्वरमजं देवं जगदप्रभवाप्ययम्। भजन्ति ये पुष्कराक्षं नते यान्ति पराभवम्। नते यान्ति पराभवम् ॐ नमः इति। अर्जुन उवाच पद्मपत्रविशालाक्ष पद्मनाभसुरोत्तमा। भक्तानामनुरक्तानां त्राता भव जनार्दना। श्रीभगवानुवाच यो मां नाम सहस्रेण स्तोतुमिच्छति पाण्डव सोऽहमेकेन श्लोकेन स्तुत एव न संशयः। स्तुत एव न संशय ॐ नमः इति। व्यास उवाच वासनात् वासुदेवस्य वासितं भुवनत्रयम्। सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते। श्रीवासुदेव नमोऽस्तु त ॐ नमः इति। पार्वती उवाच केनोपायेन लघुणा विष्णोर्नाम सहस्रकम्। पढ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो। ईश्वर उवाच श्रीराम राम रामेति रमे रामे मनोरमे। सहस्रनाम तत्तुल्यं राम नाम वरानमे। श्रीराम राम रामेति रमे रामे मनोरमे। सहस्रनाम तत्तुल्यं राम नाम वरानने। श्रीराम राम रामेति रमे रामे मनोरमे। सहस्रनाम तत्तुल्यं राम नाम वरानने। राम नाम वरानन ॐ नमः इति। ब्रह्म उवाच नमोस्तु अनन्ताय सहस्रमूर्तये सहस्रपादाक्षि शिरोरुभावे। सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः। सहस्रकोटियुगधारिण ॐ नमः इति। सञ्जय उवाच यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम। श्रीभगवानुवाच अनन्याश्चिन्तयन्तो मां ये जनात्पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्। परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे। वार्ता विषन्ना स्थितिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः संकीर्त्य नारायण शब्दमार्तं विमुक्त दुःखा सुखिनो भवन्तु कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि।